अस्तु, अस्माकम् एल्टु संस्कृतसम्भाषणवर्गस्य अद्य अष्टत्रिंशत्तमः वर्गः अस्ति. टुडेस् आर् 38th क्लास्. फर्वरी मासस्य षष्ठः दिनाङ्कः अस्ति. अण्ड् टुडेस् द 6th आफ् फेब्रुवरि. वर्गे सर्वेषां सुस्वागतम्. प्रातःकालः येषाम् अस्ति तेषां कृते सुप्रभातं, सायङ्कालः येषाम् अस्ति शुभसायम्. गतसप्ताहे का उक्तवती, कः वा का उक्तवती प्रार्थना? डोला भगिनी वा?
डोला भगिनी.
अस्तु, ज्योत्स्ना भगिनी वक्तुं शक्नोति वा?
प्रयत्नं करोमि भगिनी.
आम् आम्, करोतु करोतु, चिन्ता मास्तु.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय निजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तः. वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मान आहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतं तथा, संरक्ष्य ननु कुर्यां मे विश्वं शान्ति समन्वितम्, विश्वं शान्ति समन्वितम्. हरि ओम्.
अस्तु, ध्यायामि संस्कृतं सम्यक्.
ध्यायामि संस्कृतं सम्यक्.
ध्यायामि न ध्या, ध्यानम् इति वदामः खलु, तत्र ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्, आत्मानम् आहुतं मन्ये.
आत्मानम् आहुतं मन्ये,
आत्मानम् आहुतं तत्र योजयित्वा दत्तमस्ति. संरक्ष्य ननु कुर्याम,
संरक्ष्य ननु कुर्याम, कुर्याम,
तावदेव. सम्यक्, धन्यवादः.
धन्यवादः भगिनि.
अद्यतन सुभाषितम् अस्ति, दूरतः शोभते मूर्खो लम्बशाटपटावृतः, तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते. दूरतः शोभते मूर्खो लम्बशाटपटावृतः, तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते. मूर्खः कोऽपि मनुष्यः मूर्खः अस्ति चेत् यदा सः उत्तमवस्त्राणि धरति तदा एव सः शोभते, तस्य सः शोभमानः भवति. किन्तु तदपि अनन्तरं यावत्पर्यन्तं सः मौनेन भवति, मौनेन तिष्ठति, तावत्पर्यन्तम् एव तस्य शोभनमपि अस्ति. सः सम्यक् अस्ति, सः उत्तमः जनः अस्ति, उत्तमः पुरुषः अस्ति इति सर्वे चिन्तयन्ति. किन्तु यदा सः वक्तुम् आरम्भं करोति तदा सर्वे जानन्ति सः मूर्खः मनुष्यः इति. किमर्थम् इत्युक्ते सः बुद्धिहीनः अस्ति, सः किमपि चिन्तयितुं न शक्नोति. यदा कोऽपि मनुष्यः वदति शशकस्य पादचतुष्टयम् अस्ति इति, किन्तु सः किं वदति, न न न न, शशकस्य पादत्रयमेव अस्ति इति वदति. अन्येषां वचनं कदापि न शृणोति एव. अतः तस्य मूर्खता कदा अन्ये ज्ञातुं शक्नुवन्ति, यदा सः तस्य भाषणस्य आरम्भं भवति, यदा सः वक्तुम् आरम्भं करोति तदा तस्य मूर्खतायाः ज्ञानम् अन्ये ज्ञातुं, मूर्खतायाः ज्ञानम् अन्ये प्राप्नुवन्ति, ते जानन्ति, ज्ञातुं शक्नुवन्ति. तावदेव अस्ति अत्र. अतः यावत्पर्यन्तं सः कोऽपि मनुष्यः न वदति सः उत्तमः पुरुषः वा, बुद्धिमान् अस्ति वा, मूर्खः वा इति वयं न ज्ञातुं शक्नुमः. वस्त्रं सर्वेषां वस्त्रं दृष्ट्वा तु, ये यानि यानि वस्त्राणि धरन्ति तद्दृष्ट्वा, सम्यक् रीत्या उत्तमरीत्या वस्त्राणि धरन्ति खलु, ततः तत्र वयं किमपि ज्ञातुं, ततः वयं किमपि ज्ञातुं न शक्नुमः. अस्तु वा? अग्रे गच्छामः वा? इट्स् वेरि सिम्पल् सुभाषितम्. हरि ओम्.
जी भगिनि.
अग्रे गच्छामः वा?
जी भगिनि. भगिनी, सारी टु इण्टरप्ट् यू. वी हेड् एक्चुलि रिसीव्ड् अ मेल् फ्रोम् स्वरूप् महोदय अबौट् न्यायशास्त्रं. वाट् इस् इट् भगिनी न्यायशास्त्रं? दे आर् स्टार्टिङ्ग् अ न्यू बेच्.
न्यू बेच् दट् दे विल् स्टार्ट् समबडी विल् बि टीचिङ्ग् द न्यायशास्त्र.
वाट् डु यू मीन् बै दट् भगिनी न्यायशास्त्रम्? इट् इस् ग्रामर् भगिनी.
इट्स् नाट् ग्रामर्. तर्कशास्त्रं, न्यायशास्त्रं, व्याकरणशास्त्रम् इति भिन्नभिन्नशास्त्राणि सन्ति खलु. व्याकरणशास्त्रम् इत्युक्ते ग्रामर्. न्यायशास्त्रं मैट् बि डीलिङ्ग् वित् समथिङ्ग् लैक् सम् पोलिटिक्स्, लैक् हौ सम् डिसिशन् हेस् टु बि टेकन्. ऐ एम् नाट् वेरि श्योर् अबौट् इट्.
ओके भगिनि, धन्यवादः भगिनि.
But I don't know how they are proceeding. If they are proceeding with the sutras, etc., or anything like that, it might be little high standard. Like if you are well versed in Sanskritam, little bit at least, then it will be easier for you. If you are just now like started learning Sanskritam, we are doing L2, right? At this level, it might be little tough.
No, Bhagini, I just wanted to know what it was like, that Nyaya Shastra in the sense, like law or what does it mean, grammar, I was not sure. I just got curious about the name, that's it.
No problem. No, whoever wants to join also, you can just probably try to join. I think Dola Bhagini has started learning the Paniniya Vyakaranam, I'm not very sure. You can just join for one or two classes, then you can take a call. If it is too much for you, you can always come out of it. It is one kind of shastra, but what exactly it is, I am not very sure. If it is grammar, it is Vyakarana Shastra. That's all I mean.
Yes, Bhagini.
Bhagini, in fact, it is about Nyaya Shastra is, they explain the logic, why this term is, basically the logic kind of a thing, Bhagini, Nyaya Shastra. Because I attended Velgudi Swami's class. Second part became very difficult by me.
So
now here it's going to be fully in Sanskritam, whereas in Velgudi Swami's son, Ranganathan Swami, who took the class, he was even explaining it in English.
Okay. Yeah, probably. I'm not really sure.
Yeah.
Because I didn't go through the mail also.
Okay. Yeah. It's a very interesting, Bhagini. It helps us to understand many things. They explain, start with five elements, natural elements, and which element is related to which sense. How we in earth, on earth we find many materials, how and the particles, atoms, small atoms, etc., they explain many things, but
okay. Thanks, Shatibhai. So you can just try. If there is a curiosity to learn something new, you can just try. If you feel that it is, and the time, if it's suiting for the whoever would like to join, you can just join. As I said, no compulsion that you have to stay back all the days, right? So if you feel that it is above, then you can always come out of it. But you can take a call and join one or two classes. You can just go and check it out.
they have already provided the PDF, Bhagini. Link itself. Basically ancient Indian Sanskrit philosophy, I think. We can put it that way.
One question on the Subhashitam. This Shabda, Lamb, Shat, Patavrita. Can you explain that word again, Mahodaya? I'm not able to deduce.
Okay, there Samastha Padam, it is a Samastha Padam. Pataha ityukte Vastram iti arthe bhavati. Arthaha asti. Avritaha dhrutaha dharati iti vadamaha kalu. Dharati vair iti artham. Atra tu lamba shata iti sakshat vayam na svikurmaha. Lamba ityukte long iti artham bhavati. इत्यस्य अर्थः शाट इत्युक्ते स्कर्ट् आर् शाल् ओके सम् प्लेसस् इट् इस् गिवन् अस् शाल् सम् प्लेसस् इट् इस् गिवन् अस् स्कर्ट् लाङ्ग् स्कर्ट् सम्थिङ्ग् लैक् दट् बट् हियर् दट् इस् वै द मीनिङ्ग् हेस् बीन् टेकन् वी काण्ट् टेक् इट् जस्ट् लैक् दट् रैट् सो इट् हेस् बीन् टेकन् अस् स आडम्बर सो आडम्बर इट् वाट् टु टेल् आडम्बर वाट् डु यु काल् ग्लामरस् क्लात् or a dress, how do you tell in some English, something which is very attractive, like that.
Okay. Or expensive or grander?
Right,
grand, grand cloths, you can say like that, grand. But here, Sakshat Artham, we cannot take the Sakshat Artham. Vadatu Siddharth Mahodaya.
Mahodaya, Shataha and Pataha are both for cloth, right?
Pataha is cloth, Vastram. Kintu shata is somewhere given as long skirt, somewhere it is given as shawl, so it differs. A cloth can be any piece of cloth, right?
Yes.
But this is specific. Lamba is long, a lengthy one, whichever is a long one. Okay.
So then they are trying to compare a murkha vyakti with attractive cloth.
No. Eka nimisham Siddharth Mahadeya. Not actually Siddharth Mahodaya, what they try to convey is somebody who is wearing, we cannot identify, distinguish a person whether he is a buddhiman or a murkaha based on the cloths he wears. Okay, as long as the person is silent, we cannot identify whether the person is a foolish person or a intelligent person, right? But once he opens his mouth, when the person opens his mouth, when he starts talking something, then everybody will get to know that if the person is a knowledgeable person or he's a fool. At least he knows something or not. Here, murkha means actually, he doesn't accept others' views. Itteva artha asti. He knows something, but when others are trying to tell something, whichever is right, he doesn't accept it at all. He stands on his own point. Whether it is right or wrong is not a question at all. Such a question.
Yeah, dhanyavad.
Gregacha Mahava? कथां प्रति गच्छामः सो एतावता वयं किं पठितवन्तः इदानीन्तनकालस्य शिक्षणक्रमः नो चेत् शिक्षाक्रमः पूर्वतनकालात् भिन्नः अस्ति भेदः अस्ति क्रमेषु भेदः अस्ति क्रमयोः भेदः अस्ति सो पुरातनकाले पुरा किम् आसीत् गुरुकुलरूपेण शिक्षणम् आसीत् तत्रापि किम् अभवत् यदा बालकाः सप्तवयस्काः उपनयनसंस्कारस्य समापनं यदा अभवत् तत्र तद्वयं न समापितवन्तः, किन्तु तदेव अग्रे अस्ति. ततः परम् एव ते गुरुकुलं गन्तुं शक्नुवन्ति. किन्तु इदानीं तु यदा शिशुः मातुः योन्याम् अस्ति तदा एव किं कुर्वन्ति मातापितरौ तु यदा पञ्जीकरणस्य फार्म् पत्रं विद्यालयेषु ददति तदा विद्यालये वयं प्राप्नुमः. किं कुर्वन्ति पूर्वतन रात्रौ एव गत्वा किं कुर्वन्ति तदा पङ्क्त्यां स्थित्वा नेतव्यं खलु. इदानीन्तनकाले तादृशम् अस्ति. सो टुडे वेन् इवन् वेन् द चैल्ड् इस् इन् द मदर्स् होम् दे हेव् टु गेट् अड्मिशन् फार्म् फार् द स्कूल्स् अड्मिशन् फार् द स्कूल्स् अदर्वैस् दट्स् इट् वि काण्ट् डु एनिथिङ्ग्. किन्तु तादृशं पूर्वस्मिन् काले तादृशं न आसीत्. तद्वयं पठितवन्तः. गुरुकुले के आसन्, ऋषयः अपि आसन्, अनन्तरम् आचार्याः अपि आसन्. तत्र गुरुकुलम् इति यद् भवति तत्तु बहु शुद्धपर्यावरणे तत्तु आसीत्. नदीतीरे नो चेत् यत्र जनाः न आसन् तादृशपर्वतस्य गुहायां तादृशस्थलेषु एव गुरुकुलानि आसन्. तत्र एव गुहायामेव तेषां पठनम् अपि अभवत्. एतावत्पर्यन्तं वयं ज्ञातवन्तः. अनन्तरं वयं ये गुरुकुले आसन् तेषु केचन ऋषयः आसन्, अनन्तरं केचन महर्षयः आसन्, अन्ये केचन ब्रह्मऋषयः आसन् इति तावत्पर्यन्तं वयं पठितवन्तः. तावत्पर्यन्तं वयं समापितवन्तः खलु.
ऐ थिङ्क् वि आर् फ्रोम् वस्तुतः.
तावत्पर्यन्तं कृतवन्तः, समापितवन्तः खलु. ते न केवलम् आचार्याः अपि तु समाजस्य उन्नायकाः संस्कारकाः च अभवन्. तावत्पर्यन्तं समापितवन्तः खलु. तेन केवलम् आचार्याः अपि तु समाजस्य उन्नायकाः. हू दे अप्लिफ्टेड् द सोसैटि and they also purified the society by teaching good things to the people living in the society. Tavat paryantam sthapitantah. Aishwarya bhagini aarambham karoti va bhavatyah haste asti va anuchet aham share api krutavati wherever you want to do. Tena kevalam tat samaptam vasishtah vishwamitrah cha prasiddho tatah aarambham karoti.
वसिष्ठः विश्वामित्रः च प्रसिद्धौ ब्रह्मर्षि आस्ताम्.
वाक्यद्वयं पठित्वा तस्य अर्थमपि वदतु.
वाल्मीकिः वेदव्यासः च महर्षि आस्ताम्. वसिष्ठः विश्वामित्रः च प्रसिद्धौ ब्रह्मर्षि आस्ताम्. लैक् हेड् गुरु दैट् लैक् विश्वामित्रः एण्ड् वेरि फेमस् ब्रह्मर्षि लैक् वेदव्यासः दे आर् आल् देर्.
Vishwamitra and Vasishtha were two famous, very famous Brahmarshis. Vedavyasa and Valmiki were Maharshis.
Ji Bhagini.
Okay. Aishriya Bhagini, Brahmarshi ityasya vivaranam dadatu.
Brahmarishi. Ikarantah pullingah Brahmarishi shabdah. For ikarantah pullingah.
Ikarantah na ikarantah pullingah Brahmarishi shabdah.
Ikarantah pullingah Brahmarishi shabdah.
Pratama vibhakti shashti vibhakti rupani.
Brahmarishi for Ji Bhagini, I'm telling. Brahmarishihi, Brahmarishi, Brahmarishayaha.
Samyak.
And for Shashti Vibhakti, Brahmarishihi, Brahmarishihi. And for Dvivachanam, Brahmarishyoho. And Bahuvachanam is Brahmarishinam.
Samyak.
Dhanyavad Bhagini.
Prasiddha ityasya?
Prasiddha. Prasiddha, I don't know Bhagini. Is it Napunsakalinga Bhagini?
Napunsakalinga Mastiva. Napumsakalinga Rupani Vadatu, Udharana Shabdam Sri Krutya Vadatu.
For Napumsakalingam, you can take Phalam. Phalam is a
thing. Vadatu, Rupani Vadatu.
For Phalam, Phalam, Phale and Phalani. And and for this one is Phalas, Phalasya, Phalayoho and Phalanam. Prasiddha means Prasiddha means is it pullinga bhagini? Prasiddha. Akarantah pullingah prasiddha shabdah. Prasiddha, prasiddau, prasiddah. And for Shashi Vibhakti, prasiddhasya, prasiddhayoho, prasiddhanam.
Samyak. Atra Maharsh Brahmarshi iti pullinga padam asti iti karanena prasiddha ityapi pullinga shabda pullinga rupena tasya prayogah bhavati. Samyak.
Dhanyavad Bhagini.
Maharshi api samanam atah tyaja mahaidani. अनन्तरं किमर्थं द्विवचने दत्तमस्ति इत्युक्ते वसिष्ठः इति एकः ऋषिः आसीत् विश्वामित्रः इति अन्यः ब्रह्मर्षिः आसीत् इति कारणेन द्विवचने दत्तम् अस्ति अत्र प्रसिद्धौ द्वौ महर्षिस्तः इति कारणेन प्रसिद्धौ ब्रह्मर्षि इति द्विवचनं दत्तम् अस्ति तदेव अस्ति नेक्स्ट् अपि तादृशमेव अग्रिमवाक्यमपि तादृशमेव वाल्मीकिः इति एकः महर्षिः वेदव्यासः इति एकः महर्षिः द्वौ महर्षि स्तः इति कारणेन आस्ताम् इति द्विवचनरूपं दत्तमस्ति तत्र महर्षि इत्यपि द्विवचने दत्तम् अस्ति अर्चना भगिनी अग्रिमवाक्यद्वयम्
आं भगिनि वाल्मीकिः वेदव्यासः च महर्षि
समाप्तम्
अन्तौ भारतस्य प्राचीनतमौ प्रसिद्धौ कवि अपि आसाम् अन्योः वाल्मीकिः अनयोः वाल्मीकिः आदिकविः आसीत् सः आदिकाव्यं रामायणं
पर्याप्तं वाक्यद्वयमेव रचना भगिनि अर्थं वदतु
भगिनि what should I say?
Oh, you tell the, you read the sentence, tell the meaning, and then...
So, tau Bharatasya prachinatamau prasiddhau kavi api asit. So, Valmiki hi Vedavyasa, tau Bharatasya puratanaha prasiddha kavi asit. Anya kavi, Valmiki... वाल्मीकी अपि आसीत् सः रामायणं काव्यं लिखितवान्
अतः सः आदिकविः इति सर्वे अपि तम् आदिकविः इति रूपेण जानन्ति अस्तु सम्यक् तौ भारतस्य प्राचीनतमौ प्रसिद्धौ कवि अत्र कवि इति कौ सूचयति
कवि द्विकवि वाल्मीकिः वेदव्यासः
सम्यक् वाल्मीकिः वेदव्यासः द्वयमपि सूचयति अत्र कवि इति अत्र
द्विवचन
न द्विवचनरूप द्विवचनमेव वेदव्यासः वाल्मीकिः द्वयमपि भारतस्य भारतदेशस्य प्रसिद्धौ कवि आस्ताम् दे वेर् टु फेमस् पोयेट्स् अनन्तरम् अनयोः इत्युक्ते अमाङ्ग्स्ट् देम् वयं षष्टिविभक्तिरूपाणि पठितवन्तः खलु यत्र यत्र निर्धारणार्थं भवति तत्र षष्टिविभक्तेः प्रयोगः नो चेत् सप्तमीविभक्तेः प्रयोगः भवति इति अनयोः इत्यपि षष्टिविभक्तिरूपेण वा सप्तमीविभक्तिरूपेण प्रयुक्तम् अस्ति अत्र तस्य प्रयोगः अनयोः अमाङ्ग्स्ट् दीस् टु वाल्मीकिः आदिकविः आसीत् किमर्थं सः आदिकविः इति सर्वे जानन्ति सः आदिकाव्यं किम् आसीत् आदिकाव्यं रामायणम् आसीत् प्रथमकाव्यम् आसीत् रामायणं तस्य रचनां कृतवान् इति कारणेन वाल्मीकिः आदिकविः इति सर्वे अपि जानन्ति अस्तु वा
आं भगिनि
अस्तु कवि इति द्विवचने अस्ति इति उक्तवती अत्र तु प्राचीनतमौ प्रसिद्धौ इति द्वयम् अपि कवि इति शब्दस्य द्विवचनरूपेण दत्तमस्ति कवि
द्विवचन
आस्ताम् अपि द्विवचने अस्ति कवि इत्यस्य विशेषणरूपेण प्रयुक्तम् अस्ति सो बिकास् कवि इस् इन् द्विवचनम् all the adjectives okay prachinatamau prasiddhau tau everything is an adjective for kavi
yeah
astu va atah ekam vishayam janantu ekam vishayam janantu yatra kutrapi visheshanam bhavati visheshanam means adjective visheshyam noun this we have seen already in L1 also, I'm just telling you again. Yatra kutrapi tadrisha prayogah bhavati visheshanam yasmin vachane yasmin vibhaktya yasyam vibhaktyam visheshya shabdah asti tadeva vachanam lingam vibhakti api svikaroti visheshana shabdam api meaning that the noun whatever form the vibhakti form vachanam and the lingam the visheshyam is the visheshanam also has to follow the same vachanam vibhakti and the lingam it cannot change so even when you are not able to find out from a shabda whether it is a pullinga shabda or a strilinga shabda with if there is a visheshanam prior to that you can get to know whether the shabda is a pullinga shabda or a strilinga shabda based on the visheshanam that is used idanim tau ityasya vivaranam dadat varchana bhagini
sah tau te tau divachana
no prathamam yada vivaranam dadati ekanimsham yadaham vivaranam prichami prathamam shabda parichayam karotu anantaram prathama vibhakti rupani anantaram shashti vibhakti rupani tadrisham vadatu
तकारान्तकारान्तः पप् शब्दः नो सः शब्दः सः तौ
न एकनिमिषम् पुनः अर्चना भगिनी वदतु
तकारान्तः
दकारान्तः
दकारान्तः पुल्लिङ्गः सः शब्दः
ओके वाट् डु यु हियर् वाट् डु यु मीन् बै दकारान्तः
दकारा नो इट् वुड् बि नाट् एतद् तद् शब्दः तद् शब्दः दकारान्तः पुल्लिङ्गः तद् शब्दः प्रथमाविभक्ति सः तौ ते षष्ठीविभक्ति तस्य तयोः तेषां
पठितवन्तः वा वयं न समापितवन्तः इति चिन्तयामि सर्वनामशब्दानां षष्ठीविभक्तिरूपाणि दृष्टवन्तः वा we have not completed I think
I read it so I'm
चिन्ता मास्तु वदतु अन्ये अपि एकवारं शृण्वन्ति चेत् सम्यक् एव तेषां
तेषां
तस्य तयोः तेषां सम्यक् अत्र अर्चना भगिनी see I in the morning class also same issue I had when you say dakaranta Why it is called Dakaranta? Only if the Pratipadikam ends with a Da, Dakaranta, we say that Dakaranta, right? If the, when I say Rama, what is the last letter that is heard? Payam Kim Shrumaha? Ataha Kim Vadamaha Akarantaha Pullingaha Iti Vadamaha, Kalu? तत्र भेदः न भवति एव यदा अहं दकारान्तः इति वदामि अत्र सः इति वदामि तत्र सम्बन्धः अस्ति वा किमपि कोऽपि सम्बन्धः अस्ति वा नास्ति खलु अतः तत्र अवधानेन वक्तव्यं तत्र व्याकरणं पाणिनि हेस् डन् इट् लैक् दट् इट् इस् डिरैव् लैक् दट् सी ओन्ली वेन् यु गो इन् टु डीप् ग्रामर् हौ द तद् बिकम्स् सः वि विल् गेट् टु नो अदर्वैस् वि विल् नाट् नो अट् दिस् स्टेज् वि विल् नाट् नो
फार् नौ जस्ट् बै हार्ट् इट् एज़्
तद् एक्साक्ट्ली Unless and otherwise, you study the derivation of every single Shabda. Every, when I say from Rama, when I say Ramaha, there are lot of steps. From Rama, how do you get Ramaha? There are lots of steps. From Rama, how do I get Ramau?
Yeah.
Okay? So there are steps based on different sutras.
Yeah, but you mean, in this Dishka book, you have written Ajanta, this thing, right, in the beginning. What is Ajanta?
Ach antaha. Ajantaha. Ach means, okay, again it goes into Paniniya Vyakaranam. They are all called as Pratyaharas. Okay. There is something called as the Maheshwara Sutrani, which is presumed that Lord Shiva himself gave 14 sutras, which are called as Maheshwara Sutras. From which he gave it to Panini. Panini received them from Maheshwara. Okay? So, it was not actually the sutras that Lord Shiva gave Panini. But he, if somebody has heard this shloka, Nanada Dakkam Navapanchavaram. Has any, I don't remember the starting. एकनिमिषं तिष्ठन्तु सो हि वाट् टु से हि बेत् उडुके वाट् डि वि काल् ड्रम् रैट् हि डिरिट् 14 Damaru. He hit it or what? I don't know what term to use in English. Nanada means he nadam karoti iteva artham tatra. He 14 times there was a sound that came from his damaru. Okay, which turned out to be the Maheshwara Sutranis that Pani took. Okay. So from the sutras, sutras are just one liners. There is something called as I wouldn't really call that. We will not go into that. So based on the 14 sutras, there are some short forms that are derived, and Ach is one such short form which incorporates all the fraksharas. Okay, so it contains I wouldn't relic evom I ouch. So what did I start with? A, then I ended with cha, right? So ach. Ach ante yasya saha saha ajantaha. Okay? Whatever. Okay. Ach means it contains. When I say a, it also includes a. Akara, akara, e, ikara, ikara, ukara, ukara, r, r, l, a, o, I and au.
Okay, so all the okay. Swaras and
Swaraksharas, exactly.
So the Diksha advocate is done like that, that's why I asked you.
That's why I'm explaining. Ajantaha means achante yasyatah. Ach is a pratyahara. You take it for now as a short form. You don't need to remember the grammatical names. It is a short form which indicates the swaraksharani. Tavadeva atra.
For swarakshar, okay. I was thinking yes. cha should come. Okay.
No.
Confusion.
Achya means, just remember two things. Achya means all the swaraksharanis. Hal means, we will do it in the next level. Halanta shabdaha iti patamaha. Hal means all the vyanjanaksharams. Tavadeva.
Okay. And they have given okaranta also, we have not done that, right?
So that is okay. Okaranta, vayam na patitavanta. Okaranta, it is a very vishesha form. The very famous shabda is only the go shabda.
Go shabda, and there is a glow example or something, I think.
Glow.
Yeah.
Chandrasya Paryayapadam.
So, Bhagini, ach is all the vowels and hal is all the consonants, right?
Exactly. That's it. For now, we will just take it like that.
A good way to remember.
Thank you.
Swarams means, Swaraksharani means the vowels, right? Vyanjanaksharani means it is the consonants. Right? Kha, kha, ga, gha, nga, cha, cha, ja, ja, nya, all that are Vyanjanaksharani. A, e, all those are Swaraksharani. Right? Dhanyavada Gita Vaini. Drittavasane Natarajanajaha. Nanada.com, Navapanchavaram, there is a second line also to it. Okay, so he hit the drum 14 times and the 14 sounds which came from his, the Damaru, they are called as the Maheshwara Sutrani. The entire Paniniya Vyakaranam is based on those sutras. Ustuva, Agri Gatcha Mahava. So where did we stop? Deviated.
The first paragraph is finished.
Ekadimsham. Archana Bhagini. I want you to give the Vyakarana Vivaranam of Adi Kavi also.
Adi Kavi. Ikarantaha. Ikarantaha. Pullingaha. कवि शब्दः और आदि कवि शब्दः
आदि कवि आई डोंट वांट कवि
आदि कवि शब्दः प्रथमा विभक्ति आदि कवि की आदि कवि आदि कवयः षष्ठी विभक्ति आदि कवेः आदि कवयोः आदि कवीनाम
षष्ठी विभक्ति रूपाणि पुनः वदतु no no till the shashti shashti vibhakti
rupani adi kaveh
kaveh
kaveh adi kaveh adi kaveh adi kav yoho
कव्योः हर्योः इति खलु
हर्योः कव्योः देन् कवी आदि कवीनां
कवीनां सम्यक् उत्तमं तावदेव
दीर्घ
अत्रापि प्राचीनतमौ प्रसिद्धौ यदा वयं दृष्टवन्तः द्विवचने कवि इति द्विवचने अस्ति इति कारणेन विशेषरूपेण प्रयुक्तः अस्ति तौ प्राचीनतमौ प्रसिद्धौ कवि इति सम्यक् अग्रे सः आदिकाव्यं रामायणं रचितवान् इति कारणेन तस्य अन्यः नाम अस्ति आदिकविः इति अन्यत् नाम अस्ति अस्तु धन्यवादः डोला भगिनी अग्रे
सः आदिकाव्यं रामायणं रचितवान् वस्तुतः भारतीयशिक्षणपरम्परायाः किञ्चित् वैशिष्ट्यम् अस्ति
वैशिष्ट्यम् अस्ति
वैशिष्ट्य
शिष्ट्यं
वैशिष्ट्यम् अस्ति शिशुः मातृगर्भे स्थितः संवर्धनकालतः एव शिक्षां प्राप्नोति
मातृगर्भे स्थितः
कालतः एव प्राप्नोति
वदतु दोला भगिनी
शुड् ऐ कण्टिन्यू
नो नो अर्थं वदतु अनन्तरम् अहं प्रश्नान् पृच्छामि
ओके सो आदिकाव्यं रामायणं रचितवान् सो आदिकाव्यमिकि रामायणं रचति
रचयति नो चेत् रचयति स्म नो चेत् रचितवान्
So if I want to say in English that Adikavi means ancient poet created Ramayanam.
No, no. Take the Adikavi like that only. Don't translate that. He is known as Adikavi. Valmiki is known as Adikavi.
Okay. I got it. So vastutah bhartiya shikshana paramparaya kanchit vaishishtyam asti. It says that as per Indian teaching tradition, which is very unique, Vaishishtyam Asti. Shuhu Garbhe Sthitah संवर्धना कालतः एवं शिक्षा प्राप्नोति वन ऑफ द थॉट ऑफ दिस टीचिंग इज दैट द चाइल्ड व्हेन चाइल्ड इज इन मदर्स वूम एट दैट टाइम आल्सो द मदर इज गिविंग द टीचिंग We got lost, I'm sorry. Maybe my internet was like that.
No, no, no. Aham kimapi na uttavati. Shishuhu matra garbe. It is not a thought. It is a fact, Dola Bhagini.
Okay.
It is a fact that kim asti atra vastutaha prayaha iti vayam svikartum shaknumaha. Or certainly, that also we can take. Certainly or probably. Bharatiya shikshana paramparayaha kinchit vaishishtyam asti. भारतीयशिक्षणपरम्परा यद् आसीत् तत्तु विशेषः विशेषा आसीत् नो चेत् विशिष्टा आसीत् इट् वास् स्पेशल् आर् युनीक् तत्र किम् अस्ति इत्युक्ते यदा शिशुः मातुः योन्याम् अस्ति वेन् द चैल्ड् इस् इन् द मदर्स् वोम् योन्याम् अस्ति तत्र यदा तस्य वर्धनं भवति दश मासाः सः तिष्ठति खलु शिशुः तिष्ठति तत्र स्थितः भवति तत्र यदा तत्र अस्ति तदा एव तस्य पठनस्य शिक्षणस्य आरम्भं भवति आरम्भः भवति वन् बेस्ट् एक्साम्पल् इस् नोन् एक्साम्पल्स् आफ् अभिमन्यु रैट् सो हि लर्न्ड् हौ टु एण्टर् द चक्रव्यूहं यदा सः मातुः गर्भे योन्याम् आसीत् तदा एव सः ज्ञातवान् खलु कथं अन्तः प्रवेष्टव्यम् इति सः ज्ञातवान् किन्तु कथं बहिः आगन्तव्यम् इति न ज्ञातवान् कथम् अहं बहिः आगच्छामि इति सः न जानाति अतः एव सः केवलम् अन्तः प्रविशति सर्वे तं मारयन्ति खलु एकः प्रसिद्ध उदाहरणम् एकं प्रसिद्धम् उदाहरणं तत्तु अतः भारतशिक्षणपरम्परा तु विशिष्टं तत्र वैशिष्ट्यमस्ति परम्परायाः वैशिष्ट्यम् अस्ति किमर्थं वैशिष्ट्यम् अस्ति इत्युक्ते यदा कोऽपि शिशुः मातुः गर्भे भवति योन्याम् अस्ति तदा एव तस्य शिक्षणस्य आरम्भः भवति
आल्सो भक्तप्रह्लाद् भगिनी प्रह्लाद् आल्सो
सम्यक् सो टु प्रोटेक्ट् हिम् ओन्ली द sage went and stayed with them, right? I don't remember the name and all now.
Yes.
To protect him.
Yes. Narada took him, he took care of them until he was there with Dayalu.
And he told about all the stories Narayana of Narayana. Narayana, yes. Samvardhana kalataha eva. Ataha samvardhanam itukte सम्यक् वर्धनम् इति अर्थम् क्षम्यताम् एकनिमिषम् सम्यक् वर्धनम् इति भवति अतः यथा तस्य मातुः गर्भे एव तस्य वर्धनस्य आरम्भः भवति तदा एव शिक्षणस्य आरम्भमपि भवति इति अतः एव अत्र भारतीयशिक्षापरम्परायाः वैशिष्ट्यम् अस्ति नो चेत् विशेषता अस्ति गीता भगिनि अग्रिमवाक्यद्वयं
नमस्ते भगिनि अतः माता तस्य प्रथमः गुरुः भवति जन्मानन्तरं पिता अन्ये च ज्येष्ठाः जनाः तस्य गुरवः भवन्ति मातुः गर्भतः शिशुः तस्य शिक्षणं प्राप्नोति अतः माता शिशोः प्रथमगुरु इति प्रथमगुरु इति भवति तस्य जन्मस्य अनन्तरम् अन्ये जनाः ज्येष्ठाः सर्वे शिशोः गुरवः भवति
पुनः प्रथमवाक्यम् एकवारं वदतु
अतः माता तस्य प्रथमः गुरुः भवति
तस्मात् पूर्वं किमपि उक्तवती खलु जन्मस्य
अनन्तरं जन्मानन्तरं सोरि क्षम्यतां भगिनि
किं भवति तत्र पृथक् पृथक् वदति चेत्
जन्मात् अनन्तरं
जन्मात् अनन्तरं वा कर्मवत् गच्छति खलु जन्म जन्मनी जन्मानि जन्मनः अनन्तरम् अस्तु सम्यक् धन्यवादः गीता भगिनि अतः माता हा एकनिमिषं तिष्ठतु डोला भगिनी
yes.
डोला भगिनी शिशु इति दत्तमस्ति खलु तस्य विवरणं ददाति वा व्याकरणविवरणम् अनन्तरं रूपाणि अपि वदतु
उकारान्तः
उकारान्तः
नपुंसकलिङ्गः
वदतु
शब्दः
पुनः पुनः वदतु दुला भगिनी
उकारान्तः लिङ्गः शिशु शब्दः
इदानीं रूपाणि
शिशुः शिशूनि शिशूनि शिशुनः शिशुनिः शिशूनां
दुला भगिनी वाट् हेपन् टु यू only weekend classes sir huh
okay.
where does the knee come where does the knee come
yeah that is in the because I thought it is a napusakalinga
Shishu. but what did you do the shabda parichayam did you do it as napusakalinga
shishu 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 shishuni शिशुः शिशु शिशु शिशुवः शिशुवः शिशुः शिशु शिशुवः षष्ठी विभक्ति विल् बि शिशु शिशु Shashti Vibhakti.
What is the example for the Ukaranta Pullinga Shabdas?
Ukaranta examples will be Guru. Example will be guru
tell the forms so, of guru
so guru hu guru guravah
bahuvachana rupam kim uktavati
guravah
ha
for the prathama vibhakti
vadatu prathama vibhakti rupani
guru hu guru guravah
इदानीं शिशु इत्यस्य वदतु
शिशुः शिशु शिशुवः
बहुवचनरूपम् आफ् गुरु
शिशवः सोरि शिशवः शिशवः
इदानीं गुरुशब्दस्य षष्टिविभक्तिरूपाणि
षष्टिविभक्तिरूपाणि इति शिशोः शिशोः शिर्वोः एण्ड् शिशूनां
द्विवचनरूपं
द्विवचनरूपं शिशोर्हो
Why the repa is coming? Shishvoho. In Guru there is a repa, so you are telling Gurvoho. But in Shishu there is no repa, right? It is only Shishvoho.
Shishvoho. And Shishu Nam.
किञ्चित् पठतु शिशूनां
शिशूनां शिशुः शिशु शिशवः शिशूनः शिशूनां
किञ्चित् पठतु लोला भगिनी
Do you want me to read it again?
No, pariyaptam. Dhanyavadaha.
Dhanyavadaha.
Geeta Bhagini?
Aam Bhagini.
Haan, idhaniyam vadativa. Guru tu savuktavati. Atra mata iti asti kalu?
Aam Bhagini.
Mata iti asti shabda parche manantaram rupani.
ऋकारान्तः स्त्रीलिङ्गः मातृशब्दः माता मातरो मातरः षष्ठी मातुः मातृः मातॄणां
मातॄणाम् इति नत्वम् आगच्छति तत्र एकवारं गुरुः इत्यस्यपि वदतु गीता भगिनी
ऋकारान्तः पुल्लिङ्गः गुरुशब्दः गुरुः गुरु गुरवः षष्ठीविभक्ति गुरोः गुर्वोः गुरूणां
गुरूणां पिता पिता इत्यस्य
ऋकारान्तः पुल्लिङ्गः पिता शब्दः पिता पितरौ पितरः षष्ठी पितुः पित्रोः पितॄणां नाम
नाम सम्यक् जन जनाः इति अस्ति कस्मिन् वचने अस्ति
बहुवचने अस्ति
भगिनि तस्यापि करोति वा
आं भगिनि अकारान्तः पुल्लिङ्गः जनशब्दः जनः जनौ जनाः जनस्य जनयोः जनानां
सम्यक् धन्यवादः गीता भगिनि अत्रापि पश्यन्तु गुरुः इति पुल्लिङ्गशब्दः अस्ति इति कारणेन प्रथमः इति अस्ति पुल्लिङ्गे विशेषणम् अस्ति प्रथमः प्रथमा प्रथमम् इति यदा अनन्तरं स्त्रीलिङ्गशब्दः अस्ति तदा प्रथमा बालिका अस्ति चेत् प्रथमा इति आगच्छति मित्रम् इति चिन्तयन्तु प्रथमम् इति आगच्छति विशेषणरूपेण अग्रिमवाक्ये किम् अस्ति जनाः इति बहुवचने अस्ति इति कारणेन ज्येष्ठाः इत्यपि बहुवचने अस्ति तदपि इदानीम् उक्तवती यस्मिन् वचने यस्यां विभक्त्यां यस्मिन् लिङ्गे विशेष्यशब्दः अस्ति तदेव वचने लिङ्गे अनन्तरं विभक्त्यामपि विशेषणमपि तदेव स्वीकरोति इति अतः एव अत्र जनाः इति प्रथमा बहुवचने अस्ति इति कारणेन ज्येष्ठ इति शब्दः अकारान्तपुल्लिङ्गशब्दः तदपि बहुवचने अस्ति दत्तमस्ति अग्रे पश्यन्तु अन्ये इत्यपि विशेषणरूपेण अस्ति अन्य इति एकं सर्वनामपदम् अन्य इति सर्वनामशब्दः अस्ति लैक् तद् एतद् भवत् ओके अन्य अन्य इति एकः सर्वनामशब्दः अस्ति किन्तु रूपस्य भेदः अस्ति तत्र अन्यः अन्यौ अन्ये इति रूपाणि गच्छन्ति सो प्लीज़् नोट् डौन् अन्य इस् अगेन् विशेषणं फार् ज्येष्ठ अण्ड् जन आर् जन बिकास् जन इस् इन् बहुवचनं दिस् अन्य इस् आल्सो इन् बहुवचनम् अन्यः अन्यौ अन्ये अन्या अन्ये अन्याः इट् गोस् लैक् सीता in napunsakalingam anyat there also there is a difference it goes like bhavat okay in the napunsakalingam anyat anye anyani iti rupani napunsakalinge just for your knowledge you don't need to worry about it now okay tasya gura
jeshta is also visheshanam only no
jeshta is a visheshanam because jana is in bahuvachana form it also takes the same vachanam and the लिङ्गम् अण्ड् एव्रिथिङ्ग् सो ज्येष्ठः इस् इन् पुल्लिङ्ग ज्येष्ठा इन् स्त्रीलिङ्ग ज्येष्ठम् इन् नपुंसकलिङ्ग.
भगिनी एकवचनम् इस् अन्य अन्य और् अन्यः.
पुल्लिङ्गे अन्यः इति भवति, स्त्रीलिङ्गे अन्या इति भवति, किन्तु नपुंसकलिङ्गे अन्यत् इति रूपं स्वीकरोति.
धन्यवादः भगिनि.
भगिनि अतः अन्ये द्विवचन
न न इन् स्त्रीलिङ्ग इट् इस् द द्विवचन. इन् स्त्रीलिङ्ग अण्ड् नपुंसकलिङ्ग इट् इस् द अन्ये द्विवचन. वेन् इट् इस् लैक् सः तौते, रिमेम्बर् सः तौते, द ते इस् इन् बहुवचनं रैट्, बट् द पुल्लिङ्ग पुल्लिङ्ग फार्म्. बट् इन् नपुंसकलिङ्गम् अण्ड् स्त्रीलिङ्गम् इन् द द्विवचन फार्म् इस् ते रैट्. सा ते ताः तत् ते तानि. Right? So remember that. So then it will be easy.
Okay.
Bhagini, this Guruhu, if it is a Ikarantaha Strilinga, if it's Prathama Guruhu, if it's Lekhani, then it will be Prathama Lekhani, yeah? Even for the Ikaranta.
Ah, yes, yes, yes.
Yeah.
One more thing I wanted to mention. Good that Jyotsna Bhagini brought it out. See, atra pashyantu, गुरु इति उकारान्तपदम् अस्ति खलु. गुरु इति उकारान्तशब्दः, किन्तु प्रथम इति अकारान्तपुल्लिङ्गशब्दः. अस्तु वा? सो इफ् द नौन् इस् इन् सम् अदर् एण्डिङ्ग्, ओके, इट् इस् नाट् नेसेसरि दट् द विशेषणम् आल्सो हेस् टु बि इन् द सेम् एण्डिङ्ग्. स्पष्टं वा? So one best example is here itself. Guru iti ukaranta pullinga shabdah, kintu prathama iti akaranta pullinga shabdah. Okay, so see, because guruhu guru guravah, you cannot say prathamuhu 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 prathamavah, right? It has to decline like ramavat. Spashtam va agre patamah. It is just now you listen once. अग्रे यदा वयं पठामः स्पष्टता भवति इतोपि. कवयित्री.
ओके, थैंक यू. कवयित्री,
इट गोस् लैक् नदीवत्.
ओके, एंड आई हैड वन मोर डाउट. दिस अन्योः, you said it is amongst, is it between or amongst? Amongst we use only when many are there, nobody.
Many are there, yeah, so between you can take.
Between we can take.
Mm-hmm.
And vastutaha, in fact, can we tell that?
Yeah, you can take. Certainly, in fact, actually, yeah, you can take.
Oh, thank you, Bhagat. Dhanyavada.
It is not anyoho, it is anayoho. So again, the pratipadikam for that is asmat shabdahva. No, idam pullinga shabdah. Okay, that we have not studied. Just for again knowledge purpose, danayoho is the shashti and saptami dvivachanam of idam in pullinga and napumsakalinga. अयम् इमौ इमे इति गच्छति. अस्य अनयोः येषाम् इति पुल्लिङ्गे नपुंसकलिङ्गे च रूपाणि गच्छन्ति. बट् वाट् एवर् एक्स्ट्रा इन्फर्मेशन् जस्ट् गेट् इट्, वि विल् गो थ्रू एव्रिथिङ्ग् लेटर् वेन् वि कम् अक्रास् रीड् दोस् शब्दास् स्पेसिफिक् शब्दास्. अस्तु, अग्रिमवाक्यद्वयं ज्योत्स्ना भगिनि.
एवं एवं शिशुः बाल्यकाले गृहे एव प्रथमिकीं शिक्षां प्राप्नोति. सो एवं, सोरि भगिनि, प्राथमिकीं. सो एवं शिशुः, ओन्ली एज अ बेबी, एवं शिशु बाल्यकाले,
एवं इत्युक्ते लैक् दिस् in this way, in this manner.
In this way, a baby, balyakale, as a child, in the house only, pratham making shiksham, means gets the first education of prapnoti, means gets.
Agree?
Yeah. Yatha samayam, tasya upanayam, sanskaram, sanskaraha bhavati. Yatha samay, in this time of his, tasya shashti of his, upanayam sanskaraha, means his values develop, bhavati, become.
Dhanyavadha. Jyotsnamayini, prashnanagre pruchami. Atrapi pashyantu, shiksha iti strilinga padam, akaranta strilinga, tasmat purvam visheshana rupena asti, prathamikaha, prathamiki, prathamikam iti pullinge, strilinge, napumsakalinge cha rupani bhavanti. Shiksha iti akaranta strilinga shabda asti iti karanena prathamika iti na. Kechana shabdaha eva vishesha shabdaha santi yatra ikarasya antaha bhavati. Udaranartam adhuniki, prathamiki, puratani, kanichana padani. Anyatra sarvatra to like jeshta, if you take it as jeshta, jeshte, jeshtaha, uttama, uttame, uttamaha, like that. Mostly it is akara ending only for the strilinga shabdas when it is a visheshanam, or it can be a ukaranta also, like laghu. It goes like Denu. In some forms, it takes the Ikaranta Shabda. You can just remember it. Sanatani, Puratani, Adhuniki, like that. So, Evam, Eta Drisham, Shishuhu Kim Karoti, Balya Kale Eva, Yada Saha, Balya Parva, Parvani Bhavati, Tada Eva Saha, Aramba Shiksham Prapnoti, Katham Prapnoti. Prathamam matuhu prapnoti, yada saha yonyam asti tada matuhu prapnoti, anantaram yada bahihi agachati, ye jeshtaha grihe santi, tebhyaha prapnoti, jeshta janaha, pitamaha, pitamahi, pitruvyaha, sarve, tasmin kale tu, sarve ekatri bhutvastitavantaha, jivanam kritavantaha kalu, it was a joint family, right? In those days, idanim tu tadasham nasti. Samanyataya, yatha samayam kalakramena, yada saha sapta vayaskaha bhavati prayaha, tada sapta vayaskaha va pancha vayaskaha bhavati, tada tasya upanayana samskaraha itite sacred thread wearing ceremony. Okay? Tatah parameva saha gurukulam praveshtum shaknoti. Ataha upanayana yatha samayam kala gachata kalena, tasya vardhanam bhavati, yada saha sapta vayaska balakaha bhavati, tada tasya upanayana samskara happy bhavati. Spashtam vayatavata?
Bhagini, upanayana, we just think it as in the samskar or the thread ceremony. Or when it's
No. Actually, there is lot of things that are hidden in that upanayana samskara. Okay? Vidya Bhagini kimapi vaktu michativa?
हाँ अग्रे वर्ग मध्ये आई विल टेल भगिनी
चिंता मास्तु उपनयन संस्कार तत्र सो फर्स्ट बिकॉज द फादर एंड मदर देयर इज समथिंग कॉल्ड एज द ब्रह्मोपदेशम राइट सो दो द शिशु हैज गॉट इट फ्रॉम द फादर राइट एट होम गृहे यदा भवति ज्येष्ठेभ्यः सः शिक्षां प्राप्नोति प्रथमं मातुः प्राप्नोति अनन्तरं ये ज्येष्ठजनाः सन्ति गृहे तेभ्यः प्राप्नोति शिशुः अनन्तरं यदा तस्य उपनयनसंस्कारः भवति तदा एव सः अर्हः भवति अन्येभ्यः पाठं स्वीकरणार्थं पाठस्य स्वीकरणार्थं सः सिद्धः भवति तदनन्तरमेव सः गुरुकुलं प्रविशति अक्षमिता विजया भगिनी अन्म्यूट् कृत्वा पृच्छतु
केन् वि कनेक्टेड् टु माता पिता गुरु दैव लैक् देट् वि हेव् नो गुरु शोस्त्रम् इस् देर् माता पिता फस्ट् माता देन् पिता देन् गुरु देट् इस् हौ वि पुट् देम् इन् आर्डर् इस् इट् केन् इट् बि रिलेटेड् टु देट्
प्रथमः वि केन् रिलेटेड् डैरेक्ट्लि टु देट् सो the first
first is mata mata tasya prathama guru bhavati janmanantaram pita anye cha jyeshta janah tasya guruvah bhavanti and after that only guru get the teacher gets a position of that it is in that order that is how that shloka goes mata pitu guru daiva
but I don't know if it can be related here like that
order
is the same
okay.
thank you there that has a different meaning vayam bhavayamah iti artham susheti iti chintayami
okay
we will stop with this paricheda with the paragraph mehul mahodaya antim vakya dvayam patativa if you can mehul mahodaya ek nimsham tishtatu if you can all spare 5 minutes is it okay आं भगिनि
यस् भगिनि
अस्तु अतः ज्योत्स्ना भगिनी प्राथमिकी इति स्वीकृत्य तस्य व्याकरणविवरणं झटिति वदति वा
प्राथमिकी
I just want प्राथमिकी
इकारान्तः स्त्रीलिङ्गः प्राथमिकी शब्दः रत्नविभक्ति प्राथमिकी प्राथमिक्यो प्राथमिक्यः षष्टिविभक्ति प्राथमिक्याः प्राथमिकयोः प्राथमिकीनां
सम्यक् उत्तमं धन्यवादः ज्योत्स्ना भगिनि
धन्यवादः भगिनि
मेघल् महोदय अग्रे अग्रिमवाक्यं द्वयं
महोदय वाट् इस् एव
eva only in the house itself here it means itself in the house itself eva eta drisham like this prashnam va eta drisham iti vadamah kalu
mode we have learned evam is also right One of the meanings of evam is also, we learned, isn't it?
Api is also, eva is only. eva we learnt in L1, whatever we learnt, you are telling that, Siddharth Mahodaya?
Not eva, evam we learnt in L1, right?
Evam,
thus,
that's like this. That is what is evam, etadrisham. I don't think it is the other meaning.
Okay, so does or like is evam and then
evam evam etadrisham asti like this it is similar to something
yes. it's an indeclinable no putne
it is an indeclinable it is an indeclinable idrisham asti
if that is evam mahodaya what is eva
eva is only general if you take the shabda phalam eva balakah phalam eva kadati means he is only fruit चाकलेहं न खादति फलम् एव खादति सो हि इस् ओन्ली फ्रूट्स् क्रिकेट् एव क्रीडति हि प्लेस् ओन्ली क्रिकेट् ओके बट् हियर् हियर् इट् मीन्स्
दिस् वे ओन्ली केन् वी से
No, no, atra eva in the house itself, in his house itself, he gets it. Here it doesn't mean only, here we have to take it as itself.
Itself or already, something like that. Okay, dhanyavad mahodaya.
Itself. Grihe eva, at home itself, he gets it, the prarambhika arambhasara shiksha. Stuva?
Okay, dhanyavad.
Dhanyavad. मेहुल् महोदय इदानीं पठति वा वाक्यद्वयं झटिति
सो यथा समयं तस्य
तत् समाप्तम् अग्रिम अन्तिमवाक्यद्वयम् उपनयनानन्तरम्
उपनयनानन्तरं वटुः गुरुकुले प्रवेशम् अर्हति ते च वटवः ऋषीणां मार्गदर्शनेन स्वविषये निष्णान्ताः
निष्णाताः
भवन्ति
सम्यक् इदानीम् अर्थं वदतु अनन्तरं व्याकरणांशान् पश्यामः
So after the Upanayan Sanskara, only they are eligible to get entry in the Gurukul.
Samyak.
And all those boys, under the guidance of rishis, become experts in various subjects, their own subjects.
Their own subjects. Bahu samyak, Mehul Maharaj, Tadevasti. Idanim vadato anantara maham artham vadami, sanskrutena. What to who ityasya?
उकारान्तः पुल्लिङ्गः वटुशब्दः वटुः वटु वटवः वटेः सो वटोः वट्वोः वटूनां
बहु सम्यक् वटवः कस्मिन् वचने अस्ति अग्रिमवाक्ये
ऋषीणां
न वटवः इति अस्ति खलु ते च वटवः
Yeah, so that's the plural for वटुः right?
बहुवचने अस्ति
Yeah.
सम्यक् ऋषीणाम् इत्यस्य व्याकरणविवरणं
ऋकारान्तः पुलिङ्गः ऋषीशब्दः
पुनः पुनः वदतु
इकार सो सोरि ईकारान्तः पुल्लिङ्गः
ईकारान्तः नास्ति खलु
ईकारान्तः पुल्लिङ्गः ऋषिशब्दः ऋषिः ऋषि ऋषयः
ऋषयः
एण्ड् ऋषेः ऋष्योः ऋषीणां
सम्यक् ऋषीणां सम्यक् धन्यवादः महोदय उपनयनानन्तरम् इति समस्तपदम् उपनयनस्य अनन्तरं वटुः शिशुः इति अर्थपर्यायपदम् इत्यस्य पर्यायशब्दः गुरुकुले प्रवेशम् अर्हति इत्युक्ते तदा एव यदा तस्य उपनयनसंस्कारः भवति तदनन्तरम् एव सः गुरुकुलं गन्तुं शक्नोति तस्मात् पूर्वं शिशुः तु तत्र गन्तुं न शक्नोति अर्हः इस् एलिजिबल् ते च वटवः ऋषीणां मार्गदर्शनेन स्वस्वविषये निष्णाताः इस् दे बिकम् स्किल्फुल् आर् एक्स्पर्ट्स् इति अर्थम् अर्थे भवति नैपुण्यं प्राप्नुवन्ति स्वस्वविषये इति यदा अर्जुनं स्वीकुर्मः तदा सः धनुर्विद्यायां नैपुण्यं प्राप्तवान् किन्तु भीमः आसीत् सः तु गदविद्यायां सः नैपुण्यं प्राप्तवान् अतः एव स्वस्वविषये यत्र कस्यापि इच्छा अस्ति तस्मिन् विषये एव ते गुरुकुले एव स्थित्वा तस्मिन् विषये यत्र तेषां रुचिः आसीत् तत्र ते नैपुण्यं प्राप्तवन्तः कुशलता इत्यपि वक्तुं शक्नुमः ते नैपुण्यं प्राप्तवन्तः निपुणाः भवन्ति इत्यपि वक्तुं शक्नुमः कुशलाः निपुणाः कौशल्यं प्राप्तवन्तः कुशलत्वं प्राप्तवन्तः किमपि भवतु कथं प्राप्तवन्तः इत्युक्ते ये ऋषयः तत्र आसन् तेषां मार्गदर्शनेन तेषां मार्गदर्शनम् इत्युक्ते गैडन्स् तेषां पाठनेन यत्किमपि ते वदन्ति तद् अनुसृत्य ते नैपुण्यं प्राप्तवन्तः तत्र सम्यक् अभ्यासमपि कृत्वा तेषां वचनं श्रुत्वा तादृशं ते नैपुण्यं प्राप्तवन्तः इत्येव अग्रे अग्रिमसप्ताहे कुर्मः अस्तु वा इस् इट् लाट् आफ् इन्फर्मेशन् इस् इट् टू कन्फ्यूसिङ्ग् आर् वि विल् वाट् डु यु आल् से डु वि स्टिक् जस्ट् टु वाट् एवर् इस् गिवन् इन् द बुक्
इट्स् फैन् भगिनि
इट्स् ओके इट्स् नाट् लाट् आफ् इन्फर्मेशन् भगिनि
भगिनि we are nishnantaha bahuvachan for whatever
samyak tadeva visheshana rupena asti
visheshana rupaha
nishnatah nishnata nishnatam
this is nice Bhagini because in the book it is already there and you know we just can keep doing this is kind of a putting it into practice
no atrapi like this like so much of information additional information is it too much for anybody just that's what I wanted to know
no yeah. we need it that's in fact we are learning
it. We need it Bhagini
because this is like application of whatever we have learned so we are applying what you have taught us I mean I was not there for so many days I should not be telling that but still I'm telling in this three classes only these three classes only I have understood this way though I am a COVID student now in these three classes I have learnt a lot
dhanyavada
am bhagini no I am telling you the truth
no astu chinta mastu
No, in English I can tell. I can give vivarana for I can write thesis, but in Sanskrit to tell, no, it needs that expertise. So I think if I keep listening to you, if I keep listening to you, I may learn better and more. Dhanyavada, Bhagini.
Dhanyavada.
Bhagini. Bhagini. Priya Bhaginyaha Sadrushi Anya Shikshika Nasti.
Vidyavagini tadrisham nasti it is not like that at all ekam nimsham vayam agre charcham kurmaha shanti mantram ye gantum ichanti te gantum shaknuvanti shanti mantrena samapayamaha sarve bhavantu sukhinah सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुभ्यो नमः हरिः ॐ धन्यवादाः
धन्यवादः भगिनी
धन्यवादाः